अस्माकं विषयः अस्ति व्यापारः इति. पूर्वस्मिन् वर्गे व्यापारस्य भागः कार्योत्पत्त्याम् उदाहरणाभ्यां दृष्टः. प्रथम उदाहरणम् आसीत् चक्षुसंयोगः इति व्यापारः. चक्षुः अस्ति प्रत्यक्षम्, अर्थप्रत्यक्षम् इत्युक्ते घटप्रत्यक्षम् अपि जायते. केवलं चक्षुः एव अस्ति चेत् घटप्रत्यक्षं न भवति, चक्षुघटसंयोगेन एव प्रत्यक्षं जातम्. अतः अत्र चक्षुसंयोगः व्यापारः भवति. तदा एव दण्डघटविषये अपि, दण्डः कारणं, निमित्तकारणम् अस्ति घटं प्रति. दण्डः साक्षात् घटं न उत्पादयति, दण्डः संयोगेन चक्रे अस्ति, पुनः चक्रकपालयोः संयोगसम्बन्धः. अस्माकम् उदाहरणे दण्डः नष्टः जातः कार्योत्पत्तिसमये. यद्यपि आदौ आसीत् दण्डः, अपि तु चक्रभ्रमणम् अपि जातं तेन, तदनन्तरं दण्डः नष्टः जातः बलेन उपयोगेन. परन्तु घटोत्पत्तिः तु जातः कथम्? दण्डेन जन्या भ्रमिः चक्रे उत्पन्ना, पुनः चक्रे उत्पन्ना भ्रमिः कपाले उत्पन्ना. अतः स्वजन्य भ्रमिजन्य भ्रमिमत्ता सम्बन्धेन दण्डः कपाले. यद्यपि दण्डः नष्टः, केनचित् सम्बन्धेन कपाले आसीत् इति कृत्वा कार्यं जातम्. सः एव व्यापारः इति उच्यते. भ्रमिजन्यभ्रमिः इति व्यापारः. व्यापारस्य लक्षणवाक्यमपि दृष्टं. व्यापारस्य लक्षणवाक्यम् अस्ति यत् यः कारणेन जायते कार्यं च जनयति. अर्थात् व्यापारे जन्यत्वम् अस्ति, कारणेन जन्यः अस्ति, पुनः तस्मिन् जनकत्वम् अपि अस्ति, कार्यस्य जनकत्वम् अपि अस्ति. अतः माध्यमरूपेण कार्यं करोति इति दृष्टम्. अग्रे स्मृतिजनने व्यापारः कथं प्रविशति इति वयं पश्यामः. एतावत्पर्यन्तं सन्देहः अस्ति वा? नास्ति चेत् अग्रे पठेम. रामप्रिया भगिनी.
आं भगिनि.
भावनाख्यसंस्कारः आवश्यकः इति भागः.
आं भगिनि. भावनाख्यसंस्कारः आवश्यकः. एतादृशव्यापारकल्पनायाम् आपतिता अयमेव अनुभवजन्यः स्मृतिजनकः भावनाख्यः व्यापारः शास्त्रकारैः कल्पितः.
कल्पनायाम् आपतितायाम् इति एव.
कल्पनायाम् आपतितायाम् एव अनुभवजन्यः स्मृतिजनकः भावनाख्यः व्यापारः शास्त्राकारैः कल्पितः. तथा हि जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः, तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः. सः द्विविधो भवति. अनुभवः आद्यः, प्रकृतलक्ष्यभूता स्मृति अपरा. आद्यः अनुभवः प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात् इत्यनेन उपरिष्टात् विभज्यते. प्रत्यक्षं च इन्द्रियेण जायमानम्, अनुमितिः परामर्शात् उत्पद्यते, उपमितिः सादृश्यज्ञानात् जायते, शाब्दबोधश्च शब्दात्. एते एव इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः प्रमाणानि इति व्यवह्रियन्ते. प्रमाणम् इत्यस्य प्रमायाः जनकम् इति अर्थः. प्रमा सत्यं ज्ञानं यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा. इदानीं भावनाख्यसंस्कारः आवश्यकः इति विषये वयं द्रक्ष्यामः. तत्र एतादृशव्यापारकल्पना कल्पनायाम् आपतितायामेव एतद् वयं व्यापारः इति विषये पूर्वं दृष्टवन्तः. एतदेव विषये अनुभवजन्यः स्मृतिजनकः भावनाख्यव्यापारः शास्त्राकारैः यदा तेन कल्पितः विषयः अस्ति अनुभवेन जन्यः स्मृतिजनकः भावनाख्यः इति व्यापारः
एकः
प्रभेदः. तथा हि जानामि गृह्णामि अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः तत्र तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः. यदा वयं विषयत्वविषये निरूपण पूर्वं निरूपितवन्तः तत्र वयं प्रदर्शितवन्तः यदा जानामि गृह्णामि अवगच्छामि इति एकविध ज्ञानं तद्विषये व्यवहारः इति विषये शब्दजनकः इति किल तदेव ज्ञानं तत्र वयं प्रदर्शितवन्तः. तद् व्यवहारः द्विविधः भवति.
अस्तु भगिनि, अत्र जानामि गृह्णामि अवगच्छामि इति व्यवहाराः खलु, इत्युक्ते कोऽपि घटं पश्यति, अहं घटं जानामि, अहं घटस्य रूपं गृह्णामि इति वाक्यैः व्यवहाराः प्रकटीक्रियते खलु, प्रकटीक्रियन्ते इत्युक्ते अहं जा इति शब्दप्रयोगः अस्ति खलु. यदि कोऽपि किमपि पश्यति वा शृणोति तदा शब्दप्रयोगः भवति इति पृथक्त्वविषये वा काललक्षणविषये परत्व अपरत्वविषये दृष्टवन्तः, बहु किमपि दृष्टवन्तः खलु. कथं शब्दप्रयोगः जातः, व्यवहारः जातः, व्यवहारेण कथं ज्ञानं जातम् इति. तर्हि अत्र अहं जानामि, अहं गृह्णामि, अहम् अवगच्छामि इति व्यवहाराः चेत् यः ज्ञानपदार्थः तत्र तत्र विषयत्वादिनिरूपण अवसरे इत्युक्ते किम्?
तत्र यदा वयं अयं घटः इति वदामः अयं तत्र एकं ज्ञानम् उत्पद्यति आत्मनि घटविषयकं ज्ञानम् इति.
समीचीनं.
घटविषयकं ज्ञानं मनसि उत्पद्यति तदेव आत्मनि उत्पद्यति तदेव वयं विषयत्वनिरूपणावसरे वयं दृष्टवन्तः यः ज्ञानपदार्थः अस्ति इति.
समीचीनम्. इत्युक्ते घटः अस्ति चेत् घटे विषयता अस्ति, तर्हि ज्ञानं तु सविषयकम् अस्ति, ज्ञाने अपि विषयः अस्ति, विषयिता सम्बन्धेन अस्ति. घटः इति विषयः ज्ञाने अस्ति, अतः घटविषयकं ज्ञानम् इति वदामः. अत्र जानामि गृह्णामि इत्युक्ते अत्र विषयः कः, ज्ञानविषयः कः?
जानामि पदे अहं जानामि इति भवति चेत् तत्र ज्ञानमेव विषयकं भवति,
विषयः ज्ञानमेव विषयः. अहं जानामि इति मनसा गृह्यते मनसेन्द्रियेण इति कृत्वा यत् ज्ञानम् अस्ति तत्र तदेव विषयः, ज्ञानविषय ज्ञानविषयकं ज्ञानम् इति उच्यते. अयं घटः इत्यस्मिन् सन्दर्भे घटविषयकं ज्ञानम्, परन्तु अहं जानामि इति ज्ञानं मम आत्मनि अस्ति इति ज्ञानम् अस्तु.
तत्र तदेव व्यवहारः द्विविधः भवति, अनुभवः आद्यः, प्रथमः अनुभवः, द्वितीयम् अस्ति प्रकृतलक्ष्य स्मृति इति अपरा अस्ति. प्रकृतलक्ष्यभूता स्मृतिः अपरा. अतः आद्यः अनुभवः प्रत्यक्षम् अनुमिति उपमिति शाब्दबोधात् इत्यनेन उपरिष्टात् विभज्यते. प्रथमः यदा वयम् अनुभवः इति स्वीकुर्मः चेत् तत्र तु चतुर्थविभागः अस्ति, प्रत्यक्षम् अनुमिति उपमिति शाब्दभेदः इति
शाब्दबोधः एव. परन्तु अत्र भेदः इत्युक्ते भेदाः सन्ति इति,
चत्वारः भेदाः सन्ति अनुभवस्य. प्रथमं प्रत्यक्षं तु इन्द्रियेण जायमानं. यदा वयं चक्षुषा पश्यामि इति अस्ति चेत् तत्तु इन्द्रियेण जायमानं प्रत्यक्षम् इति प्रथमविधम् अनुभवः. द्वितीय अनुमितिः इति द्वितीयविधं परामर्शात् उत्पद्यते. यदा वयं दृष्टवन्तः यत्र यत्र धूमः तत्र तत्र वह्निः इति, तत्र परामर्शज्ञानं, तत्तु परामर्शात् उत्पद्यते. तृतीयविधम् अस्ति उपमितिः.
एकनिमिषं भगिनि, अनुमितिवाक्यं किम्?
अनुमिति वाक्यमस्ति
उदाहरणत्वेन.
उदाहरणत्वेन पठामः.
पर्वतः
वह्निमान् धूमान्.
समीचीनं.
यथा महानस्वं, तदेव अनुमितिः अस्ति. तृतीयम् अस्ति उपमितिः. सादृश्यज्ञानात् जायते. यदा वयं सादृश्यपदार्थः पश्यामि चेत् तत्र एकं ज्ञानम् उत्पद्यते, तत्र उपमितिः इति तद् उपमितिः अस्ति. चतुर्थः अस्ति शब्दबोधः, तत्तु शब्दा उत्पद्यते. एते एव इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः प्रमाणानि इति व्यवह्रियन्ते. यदा वयं दृष्टवन्तः इदानीं प्रत्यक्षम् अनुमिति उपमिति शाब्दबोधः, तदेव इन्द्रिय परामर्शसादृश्यज्ञानशब्दाः, एते प्रमाणानि इति वयं व्यवहर्तुं शक्नुमः. प्रमाणम् इत्यस्य प्रमायाः जनकम् इति अर्थः. प्रमा इत्युक्ते ज्ञानं, सत्यं ज्ञानं. प्रमाणम् इत्युक्ते प्रमायाः जनकम् इति अर्थः. सत्यं ज्ञानम् इत्युक्ते यत् यथा वर्तते तत् तदैव विषयीकरोति सा प्रमा. यथा वर्तते इत्युक्ते सत्यम् एतद् अयं घटः इत्युक्ते यथा वर्तते तथैव विषयीकरोति सा प्रमा.
समीचीनम् अस्ति. अत्र उपमितिः सादृश्यज्ञाना जायते इत्युक्ते यदि वयं किं कस्यापि मुखं पश्यामः तदा चन्द्रमा इव मुखम् इत्युक्ते सादृशज्ञानं तु पूर्वं जातं. चन्द्रमा कथम् अस्ति इति पूर्वतनज्ञानं तम् आदाय इदानीं कस्यापि मुखं दृष्ट्वा वा कस्यचित् मुखं दृष्ट्वा पूर्वतनज्ञानस्य उपयोगं कृत्वा उपमितिः जायते इति. अत्र प्रमाणानि इत्युक्ते कारणानि एव प्रमाणानि वा?
इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः
प्रत्यक्षज्ञानं प्रति किं कारणम्? प्रत्यक्षज्ञानम् अनुमितिः उपमितिः शाब्दबोधः इति प्रभेदाः खलु, अनुभवस्य प्रभेदाः. समीचीनम्. इन्द्रियमेव कारणं खलु प्रत्यक्षं प्रति. अस्तु, तर्हि अनुमितिं प्रति
अनुमितिः इति अपि एक
परामर्शात्
परामर्श जायते खलु, पूर्वं पठितम् अत्र. खलु अनुमितिः परामर्शात् उत्पद्यते इति अस्ति खलु. पुनः उपमितिं प्रति किं कारणम्
इत्युक्ते तत्र सादृश्यज्ञानमेव कारणं.
शाब्दबोधं प्रति
शब्दः
एव कारणम्. इदानीं ते एव प्रमाणानि इति उच्यते, किमर्थं?
कारणं कारणम् अस्ति. कार्यं कर्तुं ते
कार्यं प्रति कारणानि सन्ति ते
कारणानि,
परन्तु किमर्थं प्रमाणानि इति उच्यन्ते?
तत्र किमपि ज्ञानं ज्ञानस्य उत्पादनं भवति तैः किल.
आम् आम्, समीचीनं भगिनि.
तैः अतः प्रमाणानि.
अस्तु, तर्हि प्रमा इत्युक्ते किम्?
प्रमा इत्युक्ते सत्यं, सत्यं सत्यमेव,
सत्यं ज्ञानम् इति.
सत्यं ज्ञानं.
अस्तु, प्रमा इत्युक्ते सत्यं ज्ञानं, तस्य जनकम् अस्ति प्रमाणम्. अस्तु, जनकम् इत्युक्ते कारणम् अपि. अत्र यत्र कार्यकारणभावः अस्ति तत्र कारणम् इति पश्यामश्चेत् कारणविशेषं यदस्ति तत् करणम् इति वदामः. इत्युक्ते कारणानि सन्ति बहूनि कार्याणि पश्यामश्चेत् प्रत्येकं कार्यं प्रति कारणानि व कारणम् इति अस्ति. तेषु यत्र व्यापारः अस्ति, व्यापारमाध्यमेन यत्र कार्यं भवति तदा कारणं करणम् अपि उच्यते. स्पष्टं वा?
पुनः वदतु.
हा, इत्युक्ते यत्र यत् कारणं व्यापारद्वारा कार्यं जनयति तत् करणम्. इत्युक्ते सब्सेट् इति वदामश्चेत् कारणं कदा करणं भवति तदा भवति. तदा भवति यदा व्यापारद्वारा कार्यं जनयति तदा करणम् इति उच्यते.
नमस्ते भगिनि.
लक्ष्मी भगिनी,
दण्डः घटोत्पत्ति कृते कारणमस्ति.
दण्डः घटोत्पत्तिं प्रति कारणम् करणमस्ति वा?
व्यापारद्वारा कार्यं जनयति
इति कृत्वा करणमपि भवति खलु. समीचीनम्. अस्तु, अत्र करणम् इति इति अवगतम्। अस्तु, करणविशेषम् अस्ति प्रमाणम्, इत्युक्ते यत् करणं प्रमां जनयति तत् प्रमाणम्। इत्युक्ते कारणम् अस्ति, व्यापारद्वारा कार्यं जनयति, तत् कार्यं तु ज्ञानं भवति, तदा करणं प्रमाणं भवति। स्पष्टम्? इत्युक्ते प्रथमस्तरे तु कारणम् अस्ति, साधारणं साधारणतया कारणम् इति वदामः, कार्यम् अस्ति चेत् कारणम् अस्ति इति। द्वितीयस्तरे यत् कारणं व्यापारद्वारा कारणं कार्यं जनयति तत् करणम्, इत्युक्ते कारणविशेषम् अस्ति करणम्। पुनः तृतीयस्तरे करणविशेषं प्रमाणम्, इत्युक्ते यत् करणं कार्यरूपे वा प्रमारूपेण कार्यं जनयति वा ज्ञानं जनयति तत् प्रमाणम् इति उच्यते। चतुर्थस्तरे आम् अग्रे पश्येम। इदानीं तु स्पष्टं खलु करणम् इत्युक्ते किं, प्रमाणम् इत्युक्ते किम् इति?
करणं कुत्र अस्ति भगिनि?
अग्रे 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 पश्येम, परन्तु केवलं परिचयरूपेण उक्तमस्ति मया करणम् इत्युक्ते किम् इति, परन्तु अग्रे पठेम। अस्तु, आम्।
यद् कारणं करणम् इति उक्तवती तदवगतम्। इत्युक्ते कारणं यदि व्यापारद्वारा कार्यं जनयति तर्हि तत् कारणं करणम् इति उच्यते, तर्हि करणम् इति कारणविशेषम् इति। अग्रे तत्र प्रमाणमिति करणविशेषः इति वा?
आम् आम्, करणविशेषं प्रमाणम् इत्युक्ते करणेषु ये कारणानि व्यापारद्वारा कार्याणि जनयन्ति तेषु यत् विशेषतया ज्ञानं जनयति तत् प्रमाणम्।
ज्ञानजनकतरणं भवति प्रमाण।
समीचीनं, ज्ञानजनकतरणं।
चतुर्विध अपि अत्र दत्तमस्ति, इन्द्रिया तादृशज्ञानशब्दः चतुर्विधप्रमाणानि।
समीचीनम्, अतः एव यथा रामप्रिया भगिन्या पठितमस्ति, इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः प्रमाणानि। कथम्? प्रथमं तु ते कारणानि इति दृष्टं,
व्यापारद्वारा भवति
इति कृत्वा करणानि। पुनः कथं प्रमाणानि?
प्रमा जनयति,
प्रमां जनयति इति कृत्वा। अनुभवः इति ज्ञानं, यथार्थज्ञानम्। अत्र तु यथार्थज्ञानस्य विषयः, यथार्थ अनुभवस्य विषयः इति प्रमा। ते सर्वे प्रमां जनयति इति कृत्वा ते प्रमाणानि। स्पष्टं वा? अग्रे पठेम विस्तरेण कथम् इति, प्रत्येकस्मिन् सन्दर्भे कथं भवति इति अग्रे पठेम। सन्ध्या भगिनी, स्पष्टं वा?
किञ्चित् स्पष्टं प्रश्नः सन्ति चेत् पृच्छामि।
अग्रे पठेम, तर्हि स्पष्टं भवति इति मन्ये।
अस्तु भगिनि।
आम्, अग्रे केनापि आगतं वा? लक्ष्मी भगिनी आगता, पुनः अन्य कोऽपि अस्ति वा?
भगिनि, मम एकः प्रश्नः अस्ति। प्रथमवाक्ये अनुभवजन्य स्मृतिजनक भावनाख्य व्यापारः, अत्र भावनाख्य अनुभवजन्य स्मृतिजन द्वाभ्यां भिन्ना अस्ति
भावना। पुनः भगिनी, प्रश्नः सम्यक्तया न अवगतः, पुनः भगिनी।
प्रथमं वाक्ये अनुभवजन्य स्मृतिजनक भावना आख्या व्यापार शास्त्रकारैः कल्पितः. महोदय उक्तवान् अनुभवजन्य प्रथमं भवति, तस्य अनन्तरं स्मृतिजनकज्ञानं भवति. अनुभवजन्य तस्य मूलमस्ति स्मृति कृते. भावना आख्या
अस्माकं पूर्वं पठितम् अस्ति खलु, अनुभवेन भावनाख्यसंस्कारः जन्यः, पुनः संस्कारेण स्मृतिः जन्या इति.
अस्तु,
अनुभव एव मूलं कारणम् अस्ति. अनुभवः न जायते चेत् स्मृति एव न जायते, परन्तु व्यापारेण जायते स्मृतिः, अतः एव संस्कारः इति व्यापारः.
अस्तु, आमाम्, अनुभवजन्या स्मृतिहेतु भावना.
हा हा, इति लक्षणवाक्यम्. अस्तु, अग्रे सरला भगिनी भवती एव पठतु.
घटवन्तं पटं पटो घटवान् इति ज्ञानं विषयीकरोति इति सा प्रमा इति उच्यते. तस्याः प्रमायाः यत् साधनं जनकं तत् प्रमाणम् इति उच्यते. तादृशं च चक्षुर् इन्द्रियं पूर्वोक्ताया प्रमा पटः घटवान् इत्याकारिका तां प्रति तस्य सन्निकर्षद्वारा जनकत्वात् इदमेव चक्षुरादि प्रत्यक्षमिति उच्यते. तज्जन्यप्रमाया अपि सैव संज्ञा. घटवन्तं पटं पटो घटवान् इति ज्ञानं विषयीकरोति इति सा प्रमा इति उच्यते. पटे घट अस्ति, त ज्ञानम् अस्ति. घटवन्तं पटम् अतः
ज्ञानं किम् अस्ति अत्र, विषयः कः, विषयिता विषयता इति दृष्टं खलु. अत्र विषयः कः, ज्ञानस्य विषयः कः?
ज्ञानस्य विषयः पटो घटवान् घटवन्तं पटं
घटवन्तं पटं तद् दृष्ट्वा आत्मनि ज्ञानम् उदेति.
पटो घटवान्
पटो घटवान् इति प्रमा. अस्तु,
प्रमा भवति. यथा यथा सत्य अस्ति घटवन्तं पट घटपटे अस्ति इति यथार्थज्ञानं सा भवति प्रमा. पटो घटवान् ज्ञानम् अस्ति घटवन्तं पटम् इति सा प्रमा भवति इच्छति. तस्या प्रमा यत् साधनं जनकं तत् प्रमाणम् उच्यते. एतत् प्रमायाः कारणं अस्ति, तस्य नाम भवति प्रमाणं, नामकर अस्ति प्रमाणम्. प्रमाया कथं भवति? चक्षुरेन्द्रियपूर्वोक्तो या प्रमा, यथा पूर्वं वर्गे वयं दृष्टवन्तः चक्षु इन्द्रिय घट चक्षुः घट चक्षुषा घटसंयोगव्यापारः अस्ति. तस् व्यापारेण यः ज्ञानं भवति, घटो पटो घटवान् तत् इति चक्षुरिन्द्रिय प्रत्यक्षं प्रमाणम् इति उच्यते. ता प्रति तस्य सन्कर्षद्वारा जनकत्वात् संयोग घट घटपटयोः चक्षुषा संयोग यदि भवति इति, तस्मात् या प्रमा वा ज्ञानम् उत्पद्यते तस्य कारणं प्रमाणमस्ति. तत् प्रमाणस्य कारणमस्ति चक्षुः आदि. चक्षुः आदि इत्युक्ते चक्षुः वा के अपि इन्द्रियाणि ते प्रत्यक्षम् उच्यते. ते इन्द्रियैः प्रत्यक्षं भवन्ति. सो इन्द्रियाणि अपि प्रत्यक्षम् अस्ति तस्य इन्द्रिया तैः यः प्रमा उत्पद्यते तत् अपि प्रत्यक्षं ज्ञानमस्ति. द्वे नामकरणं प्रत्यक्षम् अत्र अस्ति. तज्जन्यप्रमाया अपि सैव संज्ञाः.
भगिनी पठम् इति उच्यते चेत् कथम् अर्थं किम्
इत्युक्ते बुद्धिमान् बालकः इति आकारः चेत् बुद्धिः बालके अस्ति इति अर्थः निष्पद्यते खलु. तथैव घटवन्तं पटम् इत्युक्ते पटे घटः अस्ति इति अर्थः. पटः अस्ति, पटे घटः स्थाप्यते.
पटस्य उपरि.
आम् आम् तदेव.
अस्तु
तादृशमेव. इति भूतलं विशिष्यते घटेन इति अर्थः. तथैव पटः विशिष्यते घटेन. अतः विशेषणपदम् अस्ति, विशेषणवाचकं पदम् घटवन्तम् इति द्वितीयाविभक्त्याम् इति विषयः घटवन्तं पटम् इति. यथा भगिन्या उक्तं पटो घटवान् इति ज्ञानं निष्पद्यते तस्मात्. यः कोऽपि पश्यति घटवन्तं पटं पश्यति चक्षुषा पश्यति तस्मिन् तस्य आत्मनि पटो घटवान् इति ज्ञानम् उत्पद्यते. सा एव प्रमा इति. अत्र प्रमाणं किं? प्रमाणम् इत्युक्ते किं? पूर्वं दृष्टवन्तः खलु प्रमाणम् इत्युक्ते किम्.
प्रमाणं तु ज्ञानजनकं न?
हा समीचीनं. ज्ञानजनकं करणम् इति खलु. अत्र ज्ञानं तु पटो घटवान् इति ज्ञानम्. तर्हि तस्य जनकम् अस्ति प्रमाणं यत् अस्ति चक्षुरिन्द्रियं. चक्षुरिन्द्रियमेव जनकम् अस्ति अत्र इति कृत्वा चक्षुरिन्द्रियं प्रमाणं भवति. पटो घटवान् इति प्रमां प्रति प्रमाणम् अस्ति. अत्र पुनः प्रमाणं विशिष्टप्रमाणम् इत्युक्ते प्रमाणं विशेषं यत्र अस्ति तत् प्रत्यक्षज्ञानं. पूर्वं दृष्टवन्तः ज्ञानम् इति कार्यम् अस्ति चेत् करणविशेषं प्रमाणं भवति. यत्र कुत्रापि करणम् अस्ति यदि तत् करणं ज्ञानं जनयति वा प्रमां जनयति तत् करणं प्रमाणं भवति इति दृष्टं खलु. इदानीं पुनः यदि तत् ज्ञानं प्रत्यक्षज्ञानम् अस्ति इत्युक्ते इन्द्रियेण जातं ज्ञानं वा प्रत्यक्षज्ञानम् अस्ति तदा तत् प्रमाणं प्रत्यक्षम् इत्यपि उच्यते. तस्य नामकरणम् अस्ति प्रत्यक्षम्. अतः ज्ञानम् इति प्रत्यक्षज्ञानम् इति वयं जानीमः. पुनः अत्र प्रमाणस्य नामकरणम् अपि प्रत्यक्षम्. अत्र प्रमाणम् अस्ति चक्षुरिन्द्रियम्. चक्षुरिन्द्रियम् प्रत्यक्षम् इत्यपि उच्यते. स्पष्टं वा? अतः प्रत्यक्षम् इत्यस्य अर्थद्वयम् अस्ति. प्रथमं तु प्रमा, प्रत्यक्षप्रमा इति. अनन्तरं यत् प्रमाणं प्रत्यक्षज्ञानं जनयति तत् अपि प्रत्यक्षम् एव इति. स्पष्टं वा? किञ्चित् मन्दं मन्दं चिन्तयामश्चेत् अवगच्छामः. अत्र चत्वारः स्तराः इति चिन्तयन्तु कृपया. हा हा, लेवल्स् इति, सब्सेट् सब्सेट् इति आयाति. अस्तु, अग्रे सुनील महोदय.
अनुमित्यादौ बोध्येन अवगन्धेन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति, तथापि तत्र पदार्थः.
एकनिमिषम् एकनिमिषं, क्षम्यतां, विस्मृतवती. सरला भगिनी
आं भगिनि.
हा, तत्र पूर्वस्मिन् परिच्छेदे तां प्रति इत्युक्ते किं, ताम् इत्युक्ते किम्? क्षम्यताम्. तादृशं च चक्षुरिन्द्रियं, पूर्वोक्ता या प्रमा पटः घटवान् इति आकारिका, तां प्रति इत्युक्ते किं, ताम् इत्यस्य सूचनं कस्याः?
पूर्वोक्ता या प्रमा पटः घटवान् तां प्रति इत्यस्य, तां प्रति मीन्स् ज्ञानं प्रति, प्रमा प्रति.
समीचीनं, प्रमां प्रति. तस्य इत्युक्ते कस्य?
तस्य सन्निकषद्वारा जनक, तस्य च प्रमां प्रति चक्षुः सन्निकषद्वारा जनकत्वात्.
समीचीनमस्ति भगिनि. चक्षुरिन्द्रियस्य सन्निकषद्वारा जनकत्वात् इत्युक्ते जनकत्वं, जनकत्वं कुत्र? पुनः भगिनि,
सन्निकषद्वारा इति व्यापारः भवति, चक्षुषात् संयोग घट, संयोगगुणघटे समवायनसम्बन्धः भवति, तस्य कारणे ज्ञानम् उत्पद्यते समवायन.
परन्तु अत्र तां प्रति तस्य सन्निकर्ष इत्युक्ते इन्द्रियस्य सन्निकर्षद्वारा जनकत्वात् इत्युक्ते कस्य जनकत्वम् अत्र उच्यते, कस्य जनकत्वम् अत्र निर्दिश्यते?
प्रमायाः जनकत्वम्.
हा, समीचीनं, बहु समीचीनं. प्रमायाः जनकत्वम् अस्ति सन्निकर्षः, खलु, इन्द्रियार्थसन्निकर्षः. समीचीनं, बहु समीचीनं भगिनि. अस्तु, अग्रे सुनील महोदय, क्षम्यताम्.
अनुमित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति, तथापि तत्र पदार्थः उपायान्तरेण बुध्यते. यदा शब्दस्थले कश्चित् प्रामाणिकः ब्रवीति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति, श्रोतॄणाम् अस्माकं न नदी न तीरं नापि वृक्षः फलानि वा चक्षुषा सम्बन्धानि, तथापि तद्वाक्यं श्रुत्वा तत्तत्पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः. प्रमा नद्यातीरे वृक्षे बहूनि फलानि सन्ति इति, अयं शब्दात् जायमानः इति शब्दबोधः इति उच्यते, तं प्रति च जनकत्वात् शब्दोऽपि प्रमाणम्. इदानीम् अत्र चत्वारि प्रमाणानि इति सन्ति. अत्र द्वितीयमस्ति अनिमितिः इति. अतः अनिमितिः इति आरभ्य अत्र कं पदार्थम् अवगन्तुम् इच्छामः तत्र तेन पदार्थेन सह इन्द्रियस्य इन्द्रस्य किमपि सन्निकर्षः न भवति.
इत्युक्ते
पूर्वं प्रत्यक्षे वयं इन्द्रियद्वारा पश्यामः वा अथवा स्पर्शामः वा तादृशं प्रत्यक्षे भवति, अत्र इन्द्रियद्वारा तादृशं न भवति. तथापि तत्र पदार्थः उपायान्तरेण बुध्यते. अत्र प्रत्यक्षे न पदार्थम् अनुभवन्ति, परन्तु अन्य उपायेन पदार्थस्य विषयं बुध्यते. यथा शब्दस्थले कश्चित् प्रामाणिकः ब्रवीति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति. कश्चन वदति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति, सः शब्देन एवं वदति. श्रोतॄणाम् अस्माकं न नदी
प्रामाणिकः इत्युक्ते किम्?
प्रामाणिकः इत्युक्ते कश्चन ज्ञानं जनयति इति वा.
प्रामाणिकः इत्युक्ते प्रमाणम् आदाय यः वदति, प्रमाणेन वदति.
अत्र सः प्रत्यक्षे तस्य ज्ञानम् अस्ति, अतः
प्रत्यक्षे वा शब्दस्थले तु
न स यः वदति तस्य प्रत्यक्षज्ञानम् अस्ति, अतः श्रोतुः तद् स्वीकरोति इति. कः वदति सः प्रमाणिकः, एवं वा?
समीचीनमेव. श्रोतुः प्रमाणम् अस्ति, श्रोतुः ज्ञानं प्रति प्रमाणम् अस्ति शब्दः.
शब्दः श्रोतॄणाम् अस्माकं न नदी न तीरं नापि वृक्षः फलानि वा चक्षुषा न सम्बन्धानि. अतः श्रोतुः नदी तीरं वृक्षः फलानि इत्यादीनि चक्षुषा न पश्यन्ति पश्यति, तथापि तद्वाक्यं श्रुत्वा तत्तत्पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः प्रमा नद्यातीरे वृक्षे बहूनि फलानि सन्ति इति. अतः श्रोतुः अन्यस्य वाक्यं श्रुत्वा अत्र तस्य मनसि एषा प्रमा भवति, तस्य तत्र नद्यातीरे वृक्षे बहूनि फलानि सन्ति इति सा प्रमा तस्य श्रोतुः मनसि सम्भवति. अयं शब्दात् जायमानः इति शब्दबोधः इति उच्यते. शाब्दबोधः अत्र शब्देन एवं ज्ञानं जायमानः अस्ति, तत्र श्रोतुः मनसि भवति अत्र शब्दबोधः इति. तं प्रति च जनकत्वात् शब्दोऽपि प्रमाणम्. अत्र तादृशज्ञानं प्रति अत्र शब्दः एव प्रमाणम्
इति. अत्र प्रमा का?
अत्र शब्दबोधः अथवा
विशिष्टेन अत्र का प्रमा?
शब्दः किल
प्रमा. नद्यास्तीरे वृक्षे बहूनि फलानि सन्ति इति प्रमा खलु? तर्हि प्रमायाः जनकं किमस्ति?
शब्दः किल?
शब्दः एव इति कृत्वा शब्दः प्रमाणम् इति. अस्तु, अग्रे राजेन्द्रमहोदय.
आम् भगिनि, अनुमितिस्थले तथा भगिनि.
आम् आम्,
अनुमितिस्थले ज्ञातव्याः पर्वते वनिः, पर्वते कदाचित् चक्षुसन्निकर्षः स्यात् परन्तु न वनिः चक्षुः सन्निकृष्टः. पर्वते धूमः अस्ति, अस्माभिः दृश्यते. धूमस्य वह्निश्च अस्ति कश्चित् विलक्षणः सम्बन्धः, येन धूमे सति भवेत् एव वह्निः. तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्याश्च अपि वह्नेः ज्ञानं भवति. इदं ज्ञानम् एव अनुमितिः इति उच्यते. सापि अपरा प्रमा, सा च वह्निः धूमसम्बन्धज्ञानादीनाम् इति तत् सम्बन्धज्ञानम् अनुमानसम्यकं भवति अपरं प्रमाणम्. उपमितिर् इति अस्ति चतुर्थी प्रमा, तज्जनकं च उपमानं मूलनिरूपणे एव विस्तरेण निरूपिष्यते. तृतीय अनुभवमस्ति अनुमितिश्चेत् ज्ञातं, यथा जानीमः यदि कोऽपि वदति पर्वते वह्निः, कोऽपि जनः कदापि तत्र चक्षु सन्निकृष्य कृते चक्षुनिकृष्य वह्निः न दृष्टः, परन्तु पर्वते धूमः अस्ति अस्माभिः दृश्यते. पर्वते धूमः अस्ति तत् कोऽपि दृष्टः, परन्तु साक्षात् वह्निः न दृष्टः. परन्तु अस्माभिः ज्ञायते धूमस्य वह्निश्च कश्चित् विलक्षणसम्बन्धः अस्ति, यथा यत् यत् धूमः तत्र तत् वह्निः, तत् विलक्षणसम्बन्धः अस्ति, येन धूमे सति भवेत् एव वह्निः. धूमे सति हेतुः अस्ति, साध्य अपि भवेत् एव. तत्र तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्य अपि वनेः ज्ञानं भवति. तादृशसम्बन्धस्य ज्ञानं यत् यस्मिन् अपि अस्ति, तस्य असन्निकृष्टस्य अपि वनेः ज्ञानं भवति. सन्निकृष्ट न अस्ति, असन्निकृष्टस्य यत् अस्ति तत्रापि तत्र वह्निः ज्ञानं तत्र भवति. यथा कोऽपि साक्षात् वह्निः न दृष्टः, परन्तु पर्वते धूमः दृष्टः, तथा यत्र यत् धूमः तत्र तत्र वह्निः, तेन विलक्षणसम्बन्धेन जानाति तत्र धूमः अस्ति, वह्निः भवेदेव तत्र. तथा यदिपि सः चक्षुषा वह्निः न दृष्टः, परन्तु तथापि तत् तादृशसम्बन्धज्ञानं यत् अस्ति सः ज्ञातुं शक्नोति. इदं ज्ञानम् एव अनुमितिः इति उच्यते. तादृशज्ञानम् अनुमितिज्ञानम् अस्ति. तत्र परामर्शः आसीत् यत्र यत्र धूमः तत्र तत्र वह्निः, तथा अनुमितिः जायते. अनुमितिज्ञानं जनयति. तथा सा अपि अपरा प्रमा. तत् तादृशी अनुमितिः अपि अपरा प्रमा, एक विशेषप्रमा, विशेषरीत्या प्रमा अस्ति. यत्र अनुमानेन यत्र अनुमीयते यथा धूमः अस्ति, तत् आधारेण तादृशसम्बन्धज्ञानम् आधारेण तत्र जानाति तत्र वह्निमानपर्वतः अस्ति. सः च वह्निधूमसम्बन्धज्ञानादीनाम् इति तत् सम्बन्धस्य ज्ञानम् अनुमानसम्यक् भवति अपरं प्रमाणं. तत् तादृशी वह्निधूमसम्बन्धज्ञानं यथा अस्ति, ततः तत् सम्बन्धज्ञानम् अनुमानसम्यकं ज्ञानमस्ति. अनुमीयते तत् अपरं तत् प्रमाणं. तत् भवति अपरं प्रमाणम्। उपमिति इति अस्ति चतुर्थी प्रमा, उपमिति इति चतुर्थी प्रमा, चतुर्विध ये अनुभवः सन्ति तस् अन्यतमः उपमिति चतुर्थी प्रमा अस्ति। तज्जनकं च उपमानं मूलनिरूपणे एव विस्तारे निरूपिष्यते। प्रायशः अग्रे गत्वा तत्र तस्य निरूपणं भविष्यति उपमिति यथा
अस्ति। अस्तु समीचीनम्। अत्र तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्य अपि वह्नेः ज्ञानं भवति। कः सन् असन्निकृष्टः तस्य इत्युक्ते किम्?
या तत्र न साक्षात् न दृश्यवान्, प्रत्यक्षं यस्य न भवति परन्तु सम्बन्धज्ञानम् अस्ति तादृशसम्बन्धज्ञानं तस्य अपि असन्निकृष्टस्य अपि वह्नेः ज्ञानं भवति, तस्मिन् अपि वह्नेः ज्ञानं भवति।
वह्नेः ज्ञानं भवति समीचीनं, परन्तु कस्य असन्निकृष्टः तस्य असन्निकृष्टस्य अपि वह्नेः ज्ञानं भवति इत्युक्ते
यत् यः परामर्श श्रुत्वा
केवलं पदार्थः इत्युक्ते असन्निकृष्टः इत्युक्ते कस्य सूचनं किं सूचयति? कः असन्निकृष्टः?
साक्षात् सन्निकृष्ट साक्षात् प्रत्यक्षं दृश्यते।
सन्निकृष्टः इत्युक्ते किम्? इन्द्रियसन्निकृष्टत्वम् इति वदामः, इन्द्रियार्थसंयोगः खलु। अत्र असन्निकृष्टः इत्युक्ते वह्निः एव असन्निकृष्टः, वह्निः यः पदार्थः अस्ति तत् सः असन्निकृष्टः। वह्नेः असन्निकृष्टस्य अपि ज्ञानं भवति कस्मिंश्चित् आत्मनि खलु, यथा भवता उक्तं समीचीनमेव। वह्निः न दृष्टः तदापि वह्निविषये तस्य आत्मनि ज्ञानं भवति। अतः अत्र असन्निकृष्टः इत्युक्ते वह्निः, वह्निविषये एव। अस्तु, अत्र प्रमा इति अनुमितिः, पर्वतः धूमवान्, पर्वतः क्षम्यतां पर्वतः वह्निमान् धूमात् इति अनुमितिः वा प्रमा। तां प्रति प्रमाणं किम्?
प्रमाणम् अस्ति यथा वह्नि धूमसम्बन्ध ज्ञानं यः जनयति सः प्रमाणम्।
हा, इति अत्र दीयते वह्निसम्बन्धज्ञानादीना इति तत् सम्बन्धज्ञानं, यथा भवान् उक्तवान् वह्निधूमयोः सम्बन्धः, तत्तु वयं जानीमः व्याप्तिज्ञानम् इति, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं, तयोः यः सम्बन्धः ज्ञायते तत् ज्ञानम् एव व्याप्तिज्ञानम् इति उच्यते। परन्तु पूर्वतनपरिच्छेदे इत्युक्ते भावनाक्यसंस्कारः आवश्यकः इति इत्यस्मिन् तत्र अधः यः परिच्छेदः अस्ति तत्र अनुमितिः परामर्शात् उत्पद्यते इति अस्ति।
तर्हि अनुमितिज्ञानम् एव अपरं प्रमाणम्।
किं पुनः?
अनुमितिज्ञानम् एव अपरं प्रमाणम्।
एवं वा अनुमितिज्ञानं प्रमा वा प्रमाणम् अनुभवस्य एकः विधः अस्ति अन्यतमः विधः अस्ति अनुमितिः इति खलु एकः विधः अनुभवः अस्ति अनुमितिः तर्हि अनुमितिः परामर्शात् उत्पद्यते तदनन्तरम् एतानि सर्वाणि प्रमाणानि अपि दृष्टानि खलु परन्तु अस्मिन् परिच्छेदे यत् भवता पठितम् अस्ति वह्निधूमसम्बन्धज्ञानं प्रमाणम् इति अस्ति किमर्थं भिन्नमस्ति खलु
एकं तु अस्ति यत् यत् धूमः तत् तत् वह्नि तत् अनुमितिः जायते तत्तु प्रमा अस्ति
एकनिमिषं स्पष्टतया वदनीयं भोः यत्र यत्र धूमः तत्र तत्र वह्निः इति किं कीदृशं ज्ञानम्
इति तु अनुमितिज्ञानम् अस्ति
एवम् किं न अनुमितिज्ञानं किम् अस्मिन् साध्ये इत्युक्ते पर्वते वह्निः अस्ति इत्येव अनुमितिः खलु परन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति कीदृशं ज्ञानम् व्याप्तिज्ञानं खलु व्याप्तिज्ञानम् आदाय परामर्शः जायते पुनः परामर्शेन अनुमितिः जायते खलु परन्तु अत्र किम् अस्ति वाक्यं वह्नि धूमसम्बन्धज्ञानादीना इति तत् सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति अपरं प्रमाणम् इति इत्युक्ते व्याप्तिज्ञानं प्रमाणम् इति अत्र दीयते परन्तु पूर्वतनपरिच्छेदे परामर्शः प्रमाणम् अनुमितिं प्रति इति अस्ति किमर्थम् अत्र मम प्रश्नः स्पष्टः वा
किञ्चित् न अवगच्छामि भवती किं पृच्छति
एवम् अस्तु रामप्रिया भगिनी किम् अवगच्छति
एतत्तु विपरीतत्वेन अस्ति
किल इति
प्रथमं परामर्श उत्पद्यते इति अस्ति इदानीं वह्निधूमसम्बन्धज्ञानार्थ ज्ञानाधीना इत्युक्ते व्याप्तिज्ञानेन उदेति अनुमानम्
इति अस्ति खलु इदानीं स्पष्टं वा राजेन्द्रमहोदय मम प्रश्नः
एकं तु अस्ति यत्र
ज्ञानं
यत् सम्बन्धस्य ज्ञानं यथा उदेति तत्तु अनुमानसंज्ञकज्ञानम् एवं वा भगिनि प्रमाणं तत् प्रमाणम्
इति अस्ति अत्र अस्मिन् परिच्छेदे वह्निधूमसम्बन्धज्ञानं यत् द्वितीयं सोपानमस्ति अस्माकं द्वितीयं सोपानमस्ति खलु व्याप्तिज्ञानम् इति प्रथमं धूमं पश्यामः अनन्तरं अन्य कुत्रापि दृष्टमस्ति यत्र यत्र धूमः तत्र वह्निः इति सामान्यज्ञानम् तदनन्तरं परामर्शः जातः तम् आदाय अनुमितिः जाता खलु पर्वतः वह्निमान् धूमात् इति परन्तु पूर्वं परामर्शः एव प्रमाणम् इति उक्तमस्ति इत्युक्ते अस्माकं तृतीयं सोपानम् परन्तु अस्मिन् परिच्छेदे तु सम्बन्धज्ञानमेव प्रमाणम् इति अस्ति विपरीतं दत्तमस्ति खलु महोदय? आम् आम् व्याप्तिज्ञानमेव. अतः महोदयेन उक्तं तत्रापि मतभेदः अस्ति. नैयायिकानां मतं भिन्नम् अस्ति, वैशेषिकानां मतं तु भिन्नम् अस्ति. अत्र यद्यपि वह्निधूमसम्बन्धज्ञानं प्रमाणम् इति दत्तमस्ति, परामर्शः एव प्रमाणम् इति वयं स्वीकुर्मः. इत्येव विषयः.
मतं किम् इति जानीमः वा?
किं भगिनि?
कस्य मतं किम् अस्ति अत्र? द्वयोः वैशेषिकानां किं मतं वा नैयायिकानां किम् इति जानीमः वा?
नैयायिकानां मतं तु परामर्शः एव, परामर्शात् एव अनुमतिः जायते इति. परन्तु
वैशेषिकाः वदन्ति व्याप्तिज्ञानात् अपि तर्हि परन्तु वयं तु नैयायिकानां मतं स्वीकुर्मः
इति. अपि तु सर्वत्र परामर्शः एव प्रमाणं, परामर्शः एव कारणम् अनुमितिं प्रति इति दत्तमस्ति अस्मिन् पुस्तके अपि. इति कृत्वा परामर्शः एव प्रमाणम् इति स्वीकुर्मः. अत्र साधारणतया अस्मात् परिच्छेदात् व्याप्तिज्ञानं प्रमाणम् इति चेत् प्रायः व्यापारः परामर्शः भवति इति निष्पद्यते खलु. व्याप्तिज्ञानं कारणं, तर्हि व्यापारः अस्ति परामर्शः, परामर्शेन पुनः अनुमितिः जन्या इति आयाति. परन्तु तत्तु प्रायः अशुद्धम् अस्ति. किमर्थम् इत्युक्ते परामर्शः एव कारणम् इति अस्माभिः स्वीकृतम् अस्ति.
नमस्ते भगिनि, परामर्शः इति इदानीं मम स्पष्टता नास्ति.
अस्तु अस्तु, अनुमितिविषये कः वदति? चत्वारः सोपानानि, चत्वारि सोपानानि. सरला भगिनि,
भगिनी अहं सम्यक् न स्मरामि.
अस्तु अस्तु, तर्हि सुनील् महोदय स्मरति वा?
आम् क्षम्यताम्, अनुमितिः इत्युक्ते अत्र पर्वतः वन्यमान् धूमातिथि
अनुमितिः. आम् हा, प्रथमं सोपानं किम् अस्ति?
तत्र चत्वारि ज्ञानानि सन्ति, पक्षधर्मदा ज्ञानमिति प्रथमं, व्याप्तिज्ञानं, परामर्शः, अनुमितिः. अत्र पक्षधर्मदा ज्ञानम् इत्युक्ते अत्र धूमः पर्वते अस्ति इति.
धूमः दृष्टः इति कृत्वा तत्र पर्वते धूमः अस्ति इति सः जानाति. हा, द्वितीयं सोपानं?
द्वितीयमस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति द्वितीयव्याप्तिज्ञानमस्ति.
हा, कथं व्याप्तिज्ञानं जायते?
अत्र
यथा महानसे पूर्वं दृष्टं, बहुवारं दृष्टं तेन महानसे, यदा तस्य तस्य माता पाकं कुर्वन्ती आसीत् तदा वह्निः आसीत् धूमः अपि आसीत् तस्मात् हा समीचीनम् इति पुनः पुनः दृष्ट्वा व्याप्तिज्ञानं जायते यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अग्रे
अग्रे परामर्शः अस्ति अत्र वाक्येन वयं वदामः वह्नि वह्निव्याप्य हेतुमान् धूमवान् पर्वतः इति
समीचीनं वह्निव्याप्य धूमवान् अयं पर्वतः इति
तदर्थम् अनुमितिः जायते अत्र वह्निमान् पर्वतः इति
समीचीनं बहु समीचीनम् इदानीं लक्ष्मी भगिनी
अवगतवती भगिनि क्षम्यतां विस्मृतवती
करपत्रं
पूर्वं पठितुम् इति मन्ये
आम् आम् अस्तु आहत्य चत्वारि सोपानानि सन्ति सोपानशः अनुमितिः जायते पर्वतः वह्निमान् धूमात् इति अस्तु अत्र अस्मिन् प्रसङ्गे अनुमानम् इति प्रमाणम् इति अस्ति खलु अनुमानम् इति ल्युट् प्रत्ययः अस्ति ल्युट् प्रत्ययस्य अर्थद्वयं भवति प्रथमं तु भावार्थे अस्ति भावार्थे इति अनुमितिः यत् यत् ज्ञानम् अस्ति तत्तु भावार्थे अस्ति भावः इत्युक्ते कार्यः इति कार्यः इत्यपि भावार्थे अस्ति तत्र अनुमितिः वा अनुमानम् इति भावार्थे अस्ति द्वितीय अर्थः अस्ति करणार्थे इत्युक्ते यानं याति इति कृत्वा तत् यानम् अत्र करणार्थे अनुमानम् इत्युक्ते अनुमीयते इति कृत्वा अनुमानम् यत् करणार्थे अस्ति तत्तु अनुमितेः प्रमाणम् तदेव अस्ति अत्र अनुमान पुनः अनुमानसंज्ञकम् अपरं प्रमाणम् इति अस्ति अत्र यथा चक्षुरिन्द्रियम् अपि प्रत्यक्षम् इति दृष्टवन्तः तथैव अत्र परामर्शः इत्यस्य द्वितीयं नामकरणम् अस्ति अनुमानम् इति परन्तु करणार्थे अस्ति परन्तु भावार्थे यत् अस्ति तत् कार्यं वा अनुमितिः इति उच्यते स्पष्टं वा
एकवारं वदतु
अस्तु अत्र अनुमानम् इत्युक्ते इति ल्युट् प्रत्ययः अस्ति ल्युट् प्रत्ययान्तपदं तस्य अर्थद्वयम् अस्ति प्रथमं तु भावार्थे यः अर्थः भावार्थे अस्ति तत् कार्यं वा अनुमितिः इति उच्यते तदपि अनुमानम् इत्यपि उच्यते यत् कार्यं कार्यरूपेण भवति द्वितीय अर्थः अस्ति करणार्थे यत् अनुमीय अनुमानम् इत्युक्ते मा इत्यस्य धातोः धातुः उपसर्गः अस्ति अनुः अनु इति तस्मिन् अर्थे तु परामर्शः एव करणार्थे अस्ति तस्य अन्या संज्ञा अस्ति अनुमानम् इति परन्तु करणार्थे अस्ति अस्तु अस्तु उपमिते अस्ति इति चतुर्थी प्रमा तस्य विवरणं तु मूलग्रन्थे अस्ति इति अस्ति अस्तु अग्रे सन्ध्या भगिनी
तथा च एताः चतस्रः प्रमाः एव शास्त्रे अनुभवपदेन विवक्षिताः
द्वितीयः यः ज्ञानप्रकारः एतन्निरूपणादौ दर्शितः स्मृतिरूपः सः अनेन अनुभवेनैव जन्यते। यं पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः। देशविशेषात् प्रत्यागताः जनाः चक्षुरादीन्द्रियैः सम्यक् गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति। एवं विधानि उद्यानानि पर्वतान् नदीः च तत्र वयम् अद्राक्ष्मेति। चक्षुषा अदृष्टमपि अर्थम् अनुमानेन शब्देन वा सम्यक् ज्ञात्वा स्मृत्वा च वदन्ति। पर्वतः आसीत् धूमाकीर्णः कश्चित् अतः आसीत् वह्निमान् इति। एवं वृक्षे सन्ति बहु फलानि इति। तर्हि एताः चतस्रः प्रमाः एव शास्त्रे अनुभवपदेन विवक्षिताः इत्युक्ते प्रमाः यत्पूर्वं दृष्टवन्तः वयं तत्र प्रत्यक्षम् अनुमितिः उपमितिः शाब्दबोधः इति चतस्रः प्रमाः तेषाम् एव नाम तत्र अनुभवः इति इति तत्र यद्वयं प्रथमे परिच्छेदे दृष्टवन्तः तत् तर्हि अनुभवः इति एकप्रकारकम् अस्ति। द्वितीयप्रकारक तत्र ज्ञानमस्ति स्मृतिः इति। तर्हि स्मृतिः अपि अनुभवेन एव जायते। यद्वयं इन्द्रियेण वयं गृह्णीमः यं पदार्थं वा यम् अर्थं वयम् इन्द्रियेण गृह्णीमः तद् तमेव अर्थं वा तमेव पदार्थं वयं स्मर्तुं शक्नुमः वा स्मरामः इति। यदि अन्यप्रदेशात् केऽपि जनाः अन्यप्रदेशं गच्छन्ति ततः प्रत्यागच्छन्ति तत्र यद् प्रत्यक्षं चक्षुरिन्द्रियैः वा यद् प्रत्यक्षं यद् ते जानन्ति तद् स्मृत्वा अस्मान् तत्र एवमासीत् एवमासीत् इति तद् दृष्टवन्तः वयम् इति ते वर्णनं कुर्वन्ति। चक्षुषा अदृष्टमपि अर्थम् अनुमानेन शब्देन वा सम्यक् ज्ञात्वा। तर्हि चक्षुषा यद्यपि न यद्यत्किमपि यदि न पश्यन्ति तथापि तत्र अन्य अनुभवैः इत्युक्ते अनुमानेन वा शाब्दबोधेन वा तत्र ग्रहणं यदा भवति इत्युक्ते प्रत्यक्षं नास्ति परन्तु अनुमितिः वा शब्दः वा इति अन्य अनुभवः तेन अनुभवेन ज्ञात्वा तद् तं विषयं स्मृत्वा ते वर्णनं कुर्वन्ति स्मरन्ति इति। तर्हि तस्यैव उदाहरणं तत्र पर्वतः तत्र धूमेन धूमः आसीत् अतः वह्निमान् आसीत् अनन्तरं वृक्षे अपि तत्र बहूनि फलानि आसन् इति तादृशं स्मृत्वा वदन्ति। यद्यपि ते प्रायः पर्वतं न दृष्टवन्तः क्षम्यतां पर्वते वह्निं न दृष्टवन्तः तथापि अनुमानेन ज्ञात्वा वदन्ति वा यद्यपि ते वृक्षं स्वयं न दृष्टवन्तः परन्तु कस्यचित् शब्दं श्रुत्वा ते तत् स्मृत्वा वदन्ति इति कृत्वा स्मृतिः अपि एकः तत्र अनुभवः इति अत्र दत्तमस्ति। न अनुभवात् स्मृतिः भवति उपरि उपरितनतना ये अनुभवाः तस्मादेव स्मृतिः जायते इति।
समीचीनम्। इत्युक्ते प्रथमं तु अनुभवः अपेक्षितः, अनुभवः जायते इति कृत्वा एव इदानीं तु स्मृतिः भवति।
स्मृतेः कृते अनुभवः अनुभवस्य आवश्यकता अस्ति।
आम् तदेव विषयः अस्ति अत्र। अस्तु तत्र वयम् अद्रक्ष्म वयम् अद्रक्ष्म इत्युक्ते किम्?
दृष्टवन्तः इति
दृष्टवन्तः इति लुङ्लकारः अस्तु तर्हि अग्रे सरेम वा अत्र प्रश्नः अस्ति वा अस्तु लक्ष्मी भगिनी
आं भगिनि किम् अनेन कथनेन आदौ प्रमाणैः अनुभवविषयी भूता एव पदार्थाः स्मृतिविषयाः भवन्ति आदौ भूतले घटमेव दृष्ट्वा न हि कश्चित् भूतले घटं पटं न स्मर्तुं प्रभवति वह्निं वा पर्वते अनुमाय न हि पर्वते वह्निं घटं च स्मरति नवशब्दात् फलवन्तं वृक्षं ज्ञात्वा तमेव पक्षिफलोभयविशिष्टं वा स्मरति पक्षिफलोभयविशिष्टं वा स्मरति तेन यः अनुभवविषयः स एव स्मृतेरपि विषयः न अन्यः इति सिद्ध्यति न्यायभाषया इदमेव अनुभवविषयविषयिणी स्मृतिः इति व्यवहरामः अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेनैव निश्चिनुमः अस्तु किम् अनेन कथनेन इत्युक्ते पूर्वस्मिन् परिच्छेदे अनुभवेन स्मृति चतुर्विधप्रमाणेन अनुभवः जातः अनुभवेन स्मृतिरूपज्ञानं जायते इति दृष्टवन्तः आदौ प्रमाणैः अनुभवविषयी भूता एव पदार्थाः स्मृतिविषयाः भवन्ति अनुभव प्रमाणैः अनुभवविषयी भूता अनुभवविषयी भूता पदार्थः इत्युक्ते ये विषयाः अनुमानेन वा प्रत्यक्षेण वा उपमितिद्वारा वा शाब्दबोधेन अस्माकं आत्मनि ज्ञानस्य विषये भवन्ति अनुभवविषयीभूता एव पदार्थाः स्मृतिविषयाः भवन्ति अस्तु अस्तु पूर्वोक्तं चतुर्विधप्रमाणैः जनकं ज्ञानं यत् अनुभवः इति उच्यते ते एव स्मृतेः विषयः भवन्ति इति सारांशः आदौ भूतले घटमेव दृष्ट्वा न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति इत्युक्ते भूतले घटमस्ति घटं केवलं घटमेव दृष्ट्वा अत्र भूतले घटं पटं च स्मर्तुं न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति किमर्थं तत्र न इत्यस्य अस्तु आदौ भूतले घटमेव दृष्ट्वा न हि कश्चित् भूतले
घटं प्रभवति इति
स्मर्तुं न प्रभवति आम् इत्युक्ते किमर्थं न प्रभवति स्मर्तुं न प्रभवति भूतले घटं दृष्ट्वा किमर्थं न स्मर्तुं प्रभवति इति
किं स्मरति घटं दृष्ट्वा अनन्तरं किं स्मरति
घटं स्मर भूतले घटम् इति
स्मरणम् इति स्मरणं भवति खलु न तु भूतले घटं पटं च
ओ सत्यं सत्यं भूतले घटं पटं च स्मर्तुं न प्रभवति
वह्निं वा पर्वते अनुमाय नहि पर्वते वह्निं घटं च स्मरति. ओ अस्तु, अत्र पर्वते वह्निः अस्ति, अस्तु पर्वते वह्निः अस्ति इत्युक्ते अनुमानेन धूमं दृष्ट्वा, पर्वते धूमं दृष्ट्वा वह्निः अस्ति इति अनुमानेन अनुमतिः भवति, किन्तु वह्निः अपि अस्ति पर्वते घटमपि अस्ति इति तादृशस्मरणं न भवति. नावशब्दात् फलवन्तं वृक्षं ज्ञात्वा तमेव पक्षि फलोभयविशिष्टं वा स्मरति. ओ अस्तु, तादृशमेव केवलं वृक्षे फलानि वृक्षे फलानि सन्ति, फलवन्तं वृक्षम् इति अस्माकं ज्ञानं भवति तस्मात्. और् शब्दबोधात् यदि कोऽपि वदति वृक्षे फलानि सन्ति इति, वृक्षमपि अस्माकं मनसि अस्ति, फलमपि अस्माकं मनसि आयाति, किन्तु पक्षिफलो उभयमपि फलवन्तं वृक्षमिति इति द्वयोपि शब्देन पक्षी अपि तत्र स्तुतिपथं न आगच्छति, केवलं फलं वृक्षम् एव फलवन्तं वृक्षं शब्दौ बोधयतः.
समीचीनं, हा धन्यवादः भगिनी. अग्रे पुष्पा भगिनी वदति वा, पठति वा तेन यः इति आरभ्य.
तेन यः अनुभवस्य विषयः सः एव स्मृतेः अपि विषयः न अन्यः इति सिद्ध्यति. न्यायभाषया इदम् एव अनुभवविषयिणी स्मृतिः इति व्यवहरामः. अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेन एव निश्चिनुमः. अस्तु, जानामि. पक्षिफलोभयविशिष्टं तेन तत् विषयेण यः अनुभवस्य विषयः स एव स्मृतिः अपि स्मृतेः अपि विषयः. अस्तु न,
अत्र तेन इत्युक्ते किं
विषयः
एवं वा, अनुभवस्य विषयः कः?
फलवन्तं वृक्षम्
इति विषयः, अनुभवस्य विषयः तदेव अनुभूतः खलु तेन. वृक्षे फलानि सन्ति इति
अनुभवः, अनुभवस्य विषयः स एव स्मृतेः अपि विषयः न अन्यः. अन्यः नास्ति
इत्युक्ते पक्षिविषयकं ज्ञानं न भवति, तस्य स्मरणं न भवति. कथम् उत्पाद्यते तादृशं ज्ञानं पक्षिविषये? किमपि न श्रुतः, तादृशः शब्दः शब्देन न श्रुतः, तर्हि कथं पक्षिविषयकं ज्ञानम् उदेति स्मरणे इति.
अत्र न्यायभाषया इदम् एव अनुभवविषयिणी स्मृतिः इति व्यवहरामः. अत्र यः अनुभवः न्यायभाषया इदम् एव तत्तु तत् अनुभवम् एव अनुभवविषय विषयिणी स्मृतिः
इत्युक्ते इत्युक्ते किम्
इत्युक्ते तत्तु तद्विषयं तद्विषयं विषयिणी स्मृतिः इति व्यवहरामः तत्तु व्यवहारः
इत्युक्ते
इत्युक्ते अनुभवविषयः
एव
व्यवहारः
स्मृति अस्तु अनुभवविषयः स्मृतिविषयः तयोः सम्बन्धः कः सरला भगिनी अनुभवविषयः इति अस्ति स्मृतिविषयः इति अस्ति तयोः सम्बन्धः कः
अनुभवेन यः ज्ञानम् उत्पद्यते तत् ज्ञानं स्मृतिः कारणं भवति
समीचीनम् अत्र विषय
चतुर्विध अनुभव ज्ञानानि सन्ति ज्ञान चतुर्विधं प्रत्यक्षज्ञानं अनुमिति परामर्शज्ञानम् उपमतिज्ञानम् अपि शब्दबोधज्ञानं ते प्रमाणानि सन्ति अनुभवस्य ज्ञानं प्रति तत् भवति कारणं स्मृति प्रति
अनुभवः एव कारणं स्मृतिं प्रति अत्र विषयः स्मृतिविषयकं ज्ञानं किम् अस्ति
अनुभवकज्ञानम् अस्ति स्मृतिविषयकज्ञानम्
समीचीनं समानमेव खलु अनुभवविषयकं ज्ञानम् एव स्मृतिविषयकं ज्ञानम् अपि
यथा अत्र एकस्मिन् परिच्छेदे दत्तम् अस्ति यदि फलं वृक्षफलं फलवत् अस्ति तस्य अर्थम् अस्ति तत्र पक्षी नास्ति स्मरामः घटो पट घटपटवान् अस्ति तत्र घटभूतला भूतलवत् नास्ति इति ज्ञानं न भवति
विषयिणी इत्युक्ते किम् अद्य भगिनि
लिङ्ग अस्ति न
विषयस्य अधिकरणम् इति
समीचीनं विषयस्य अधिकरणम् इति स्त्रीलिङ्गपदं समीचीनम् अस्तु पुष्पा भगिनी अन्तिमं वाक्यम्
अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रतिकारणम् इति अनेन एव निश्चिनुमः निश्चिनुमः तु निश्चयेन अनुमानः
अवगच्छामः निश्चयेन जानीमः इति
यत् स्मृतिविषयं विषयीकुर्वन् तत्तु स्मृतिं प्रति कारणम् अनुभवः स्मृतिविषयं विषयीकुर्वन् तत्तु स्मृतिं प्रति कारणम् इति अनेन एव निश्चयेन वदितुं शक्नुमः
समीचीनम् अत्र शीर्षकः कः भावनाख्यसंस्कारः आवश्यकः इति पूर्वं पठितम् अस्ति खलु इदानीं तु वक्तुं शक्यते वा किमर्थम् ईदृशः शीर्षकः इति भावनाख्यसंस्कारः आवश्यकः इति
पूर्वं वयं पठितवन्तः अनुभवजन्यस्मृतिहेतु भावना सो अनुभवेन अनुभवेन जन्या भावना स्मृतिहेतु भवति स्मृतिकारणं भवति
परन्तु संस्कारं विना कार्यं जायते वा? सन्ध्या भगिनी,
तत्र स्मृतिः एव अत्र संस्कारः इति वा?
न न, संस्कारः इति व्यापारः इति पठितं खलु. व्यापारस्य कथनं किं, किमर्थं किमर्थं व्यापारः अपेक्षितः अत्र? परन्तु
अत्र
न, भगिनी भगिनी अत्र अन्तिमं परिच्छेदं पठित्वा किं ज्ञायते? रामप्रिया भगिनी वदति वा? अन्य कोऽपि
भगिनी अत्र
राजेन्द्र आम् किमपि
भगिनी भगिनी वदतु.
व्यापारः व्यापारं कारणजन्यम् अपि च कार्यजनकः. अत्र स्मृति स्मृतिं प्रति कारणम् अनुभवः इत्युक्ते स्मृति अनुभवेन जन्यः. अनन्तरं अत्र
किम्
अत्र कार्यम् इति अत्र
कार्यम् अत्र अस्ति स्मृतिः इति खलु. कार्यमस्ति स्मृतिः,
कारणमस्ति अनुभव, व्यापारः अस्ति भावना.
हा, परन्तु भावनाके संस्कारः आवश्यकः इति किमर्थं दत्तम् अस्ति इति मम प्रश्नः. अनुभवेन कार्यं जायते खलु. अनुभवः आसीत्, मनुष्यस्य अनुभवः आसीत्.
अनुभवेन संस्कारः उत्पद्यते न, तर्हि स्मृति
न अनुभवेन इद पूर्व अन्तिमे परिच्छेदे स्मृतिविषयः तु अनुभवविषयः इति पठितं खलु. अत्र मुख्य अंशः न उल्लिखितः, किम् अस्ति तत्?
स्मृतिः एव अत्र संस्कारः इति वा?
न न न न न भगिनि, परन्तु अत्र तु स्पष्टमस्ति खलु, स्मृतिविषयकं ज्ञानम् अनुभवविषयकं ज्ञानमेव. यत् अस्माभिः अनुभूतः तदेव स्मृतिः स्मृत्यामपि जायते खलु. परन्तु किमर्थम् इत्युक्ते अनुभवः तु नष्टः खलु, अनुभवः पूर्वं जातः इति खलु. इदानीं तस्य स्मरणं, पूर्वस्मिन् वर्षे दुर्घटना आसीत्, इदानीं मम वेदना अस्ति वा किमपि, अत्र अनुभवः न, घटनायाः अनुभवः इदानीं न भवति वा, इदानीं न जातं, पूर्वस्मिन् वर्षे पूर्वं जातम्. अनुभवः नष्टः, यथा अस्माकम् उदाहरणे दण्डः नष्टः, तदापि कार्यं जातं खलु. तथैव कारणं नष्टम्, अनुभवः नष्टः, तथापि कार्यं जातम्, स्मृतिः जातम्, घटनायाः स्मरणं पुनः भवति मम आत्मनि, कथं? व्यापारः अस्ति इति कृत्वा खलु. यथा अस्माकम् उदाहरणे ब्रह्मिजन्यब्रह्मिः आसीत् यद्यपि दण्डः नष्टः ब्रह्मिजन्यब्रह्मिः द्वारा घटः घटोत्पत्तिः भवति केनचित् सम्बन्धेन अतः यद्यपि अनुभवः नष्टः अस्माकं कारणं तु नष्टं परन्तु कार्यं जातं स्मृतिरूपेण यतोहि अत्र संस्कारः इति व्यापारः भवति अग्रे पठेम स्मृति संस्कारविषये अस्तु प्रश्नः अस्ति वा किम् अस्तु समापयामः धन्यवादः
धन्यवादः
शुभरात्रि